ओम नमो भगवते वासुदेवाय। अथ विंशोऽध्यायः। श्रीशुक उवाच, पुरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत, यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे। जन्मेजयो यभूत्पूरोः प्रचिन्वांस्तत्सुतस्ततः प्रवीरोऽथ नमस्युर्वै तस्माच्चारुपदो भवत्। तस्य सुद्युरभूत्पुत्रस्तस्माद् बहुगवस्ततः। संयातिस्तस्या हंयाती रौद्राश्वस्तत्सुतः स्मृतः। ऋतेयुस्तस्य कुक्षेयुः स्थण्डिलेयुः कृतेयुकः। जलेयुः सन्ततेयुश्च धर्मसत्यव्रते यवः। दशैतेऽप्सरसः पुत्रा वनेयुश्चावमस्मृतः। ऋताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः। ऋतेयोरन्तिभारो भूत् त्रयस्तस्यात्मजा नृप। सुमतिर्ध्रुवो प्रतिरथः कण्वो प्रतिरथात्मजः। तस्य मेधा तितिस्तस्मात् प्रस्कणवाद्या द्विजातयः। पुत्रोऽभूत् सुमतेरैभ्यो दुष्यन्तस्तत्सुतो मतः। दुष्यन्तो मृगयां यातः कण्वाश्रमपदं गतः। तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव। विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियं। बभाषेतां वरारोहां भटैकतिपयैर्वृतः। तद्दर्शनप्रमुदितः सन्निवृत्तपरिश्रमः। पप्रच्छकामसन्तप्तः प्रहसन् श्लक्ष्णया गिरा। का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे, किं वा चिकीर्षितं त्वत्र भवत्या निर्जने वने। व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे, न हि चेतः पौरवाणामधर्मे रमते क्वचित्। शकुन्तलोवाच, विश्वामित्रात्मजैवाहं त्यक्ता मे न कया वने। वेदै तद्भगवान् कण्वो वीर किं करवाम ते। आश्यतां यरविन्दाक्ष गृह्यतामर्हणं च नः। भुज्यतां सन्ति निवारा उष्यतां यदि रोचते। दुष्यन्त उवाच, उपपन्नमिदं सुभ्रूजातायाः कुशिकान्वये। स्वयं हि वृणते राज्ञां कन्यकाः सदृशं वरम्। ओमित्युक्ते यथा धर्ममुपये मे शकुन्तलां। गान्धर्वविधिना राजा देशकालविधानवित्। अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे। स्वभूते स्वपुरं यातः कालेनासूतसा सुतम्। कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः। बद्ध्वा मृगेन्द्रांस्तरसा क्रीडति स्म स बालकः। तं दुरत्यय विक्रान्तमादाय प्रमदोत्तमा, हरेरंशांस सम्भूतं भर्तुरन्तिकमागमत्। यदा न जगृहे राजा भार्या पुत्रा वनिन्दितौ, शृण्वतां सर्वभूतानां खेवागाः शरीरिणी। माता भस्त्रा पितुः पुत्रो येन जातः स एव सः। भरस्वपुत्रं दुष्यन्तमाववंस्थाः शकुन्तलां। रेतोधा पुत्रो नयति नरदेवयमक्षयात्। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला। पितर्युपरते सोऽपि चक्रवर्ती महायशाः। महिमा गीयते तस्य हरेरंशभुवो भुवि। चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयोः। ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराट् विभुः। पञ्चपञ्चाशतामेध्यैर्गङ्गायामनुवाजिभिः। मामतेयं पुरोधाय यमुनायामनुप्रभुः। अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद्वसु। भरतस्य हि दौष्यन्ते रग्नी साची गुणे चितः। सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे। त्रयस्त्रिंशच्छतं यश्वान् बद्ध्वा विस्मापयन् नृपान्। दौष्यन्ति रत्यगान् मायां देवानां गुरुमाययौ। मृगान् शुक्लदतः कृष्णान् हिरण्येन परीवृतान्। अदात् कर्मणि मश्णारे नियुतानि चतुर्दश। भरतस्य महत्कर्म न पूर्वे नापरे नृपाः। नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा। किरातहूणान् यवनानन्ध्रान् कङ्कान् खशाञ्छकान् अब्रह्मण्यान् नृपांश्चाहन् म्लेच्छान् दिग्विजयेऽखिलान्। जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे। देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत्। सर्वकामान् दुदुहतुः प्रजानां तस्य रोदसी। समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत्। स सम्राट् लोकपालाख्यमैश्वर्यमधिराट् श्रियम्। चक्रं चास्खलितं प्राणान् मृषेत्युपर रामः। तस्यासन् नृपवैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः। जग्नुस्त्यागभयात् पुत्रान् नानुरूपा इति रीते। तस्यैवं वितथे वंशे तदर्थं यजतः सुतम्। मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः। अन्तर्वत्न्याम् भ्रातृपत्न्याम् मैथुनाय बृहस्पतिः। प्रवृत्तो वारितो गर्भम् सप्त्वा वीर्यमवासृजत्, तम् त्यक्तु कामाम् ममताम् भर्तृत्यागविशङ्किताम्। नाम निर्वचनम् तस्य श्लोकमेनम् सुराजगुः, मूढे भरद्वाजमिमम् भरद्वाजम् बृहस्पते। यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम्, चोद्यमाना सुरैरेवम् मत्वापि तथमात्मजम्। व्यसृजन् मरुतो बिभ्रन् दत्तोऽयम् विदथेऽन्वये। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे विंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।